इयम् आकाशवाणी सम्प्रति ताम् प्रवाचकः पुनीत त्रिपाठी अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना राज्याणां विनिर्माणं प्रोत्साहयितुं इज ऑफ डूइंग बिजनेस इत्येतं प्रोत्साहयितुं भारतं वैश्विक सेवानां बृहत्तमं देशं कर्तुं च आह्वयत्। श्रीमोदी अवदत् यत् शीघ्रमेव भारतं राष्ट्रिय विनिर्माण अभियानस्य NMM इत्यस्य आरम्भं करिष्यति, तथा च प्रत्येकेन राज्येन इनं सर्वोच्च प्राथमिकतां प्रदातव्यम्। वैश्विक कम्पनी विशेषान् आकर्षयितुं संरचनानां विनिर्माणम् अपि करणीयम्। ह्यः नवदिल्ल्यां मुख्यसचिवानां पञ्चमं राष्ट्रियसम्मेलनस्य समापनसत्रं सम्बोधयता प्रधानमन्त्रिणा एतदुक्तम्। विकसिता भारतस्य मानवपूञ्जी इत्येतस्मिन् विषये अस्य मासस्य 26 दिनांके त्रिदिवसीयं सम्मेलनम् आरब्धमासीत्। भारतस्य लोकतान्त्रिकलाभं प्रकाशयन् प्रधानमन्त्री अवदत् यत् प्रायः 70% यावत् जनसंख्या कार्यशीलवयस्कसमूहस्य अस्ति, येन एकः अद्वितीयः ऐतिहासिकः अवसरः कल्प्यते यत् आर्थिकप्रगतिना सह मिलित्वा विकसितभारतं प्रति भारतस्य यात्रां द्रुततरा कर्तुं शक्नोति। प्रधानमन्त्री नरेन्द्र मोदी अवोचत् यत् भारतेन अस्मिन् वर्षे सर्वत्र दृढ प्रभावः स्थापितः। ह्यः अस्य वर्षस्य अन्तिमे आकाशवाण्याः मन की बात इति कार्यक्रमे प्रधानमन्त्री अवोचत् यत् राष्ट्रिय सुरक्षा क्रीडा विज्ञानं च प्रभृति जगतः बृहत्तम मञ्चेषु भारत जनता 25-2000 वर्षे गौरवान्विता अभवत्। तेनोक्तं यत् सिन्धूराभियानं प्रत्येकं नागरिकाय गौरवस्य प्रतीकम् अवर्तत।
देश की सुरक्षा से लेकर खेल के मैदान तक, विज्ञान की प्रयोगशालाओं से लेकर दुनिया के बड़े मंचों तक भारत ने हर जगह अपनी मजबूत छाप छोड़ी। इस साल ऑपरेशन सिंदूर हर भारतीय के लिए गर्व का प्रतीक बन गया। दुनिया ने साफ देखा, आज का भारत अपनी सुरक्षा से कोई समझौता नहीं करता। ऑपरेशन सिंदूर के दौरान देश के कोने कोने से मां भारती के प्रति प्रेम और समर्पण की तस्वीरें सामने आई। लोगों ने अपने अपने तरीके से अपने भाव व्यक्त किए।
प्रधानमन्त्री आशां प्रकटितवान् यत् 26-2000 वर्षं विकसिता भारतस्य यात्रायां महत्वपूर्णं वर्षं भविष्यति। भारतस्य उपराष्ट्रपतिः सीपी राधाकृष्णवर्यः अद्य एकदिवसीय आधिकारिकयात्रायां पुदुच्चेरी नगरं प्राप्स्यति। भ्रमणकाले उपराष्ट्रपतिः स्मार्ट सिटी मिशन इत्यस्य अन्तर्गतं गृहनिर्माण परियोजनायाः उद्घाटनं करिष्यति, तथा च पुदुचेरी नगरस्य कम्बन कलाई रंगम इत्यत्र 5 गृहाणां कुञ्चिका लाभार्थिभ्यः समर्पयिष्यति। पश्चात् सः ईश्वरन कोयल स्ट्रीट इत्यत्र स्थितस्य भरतियार स्मारके महाकवि सुब्रह्मण्यम भरतियार वर्यस्य प्रतिमायाः अनावरणमपि करिष्यति। भारत ऋतु विभागेन अस्मिन् मासे 31 दिनांक पर्यन्तं हिमाचल प्रदेशे, पंजाबे, हरियाणा राज्ये, चंडीगढ़ राज्ये, दिल्ली प्रदेशे, उत्तर प्रदेशे, बिहार राज्ये च अति सघन निहाराच्छादनस्य कृते नारंगवर्णीया संचेतना प्रसारिता अस्ति। अद्य उत्तराखण्डे, पूर्व मध्य प्रदेशे, ओडिशायां, उपहिमालयीय पश्चिम बंग प्रदेशे, उत्तर पूर्वीय भारते चापि सघन निहाराच्छादनस्य संभावना विद्यते। ह्यूमन राइट्स कांग्रेस फॉर बांग्लादेश माइनॉरिटीज HRCVM इत्यनेन उक्तं यत् अस्मिन् वर्षे बांग्लादेशे जूनतः दिसंबर मासेषु हिन्दू अल्पसंख्यकानां विरुद्धं ईशनिन्दायाः आरोपे न्यूनातिन्यूनं 170 घटनाः लिखिताः सन्ति। महिला क्रिकेट क्रीडायां ह्यः तिरुवनन्तपुरम नगरे 25-प्रति 50 अन्ताराष्ट्रिय क्रीडा श्रृंखलायाः चतुर्थ्यां स्पर्धायां भारतीय दलेन श्रीलंका दलं 30 धावनांकैः पराजितम्। इति वार्ताः।